द्वादशोऽध्याय अर्जुनायुवाच एवं सततयुक्ता ये भक्तास्त्वं पर्युपासते ये च पक्षरमव्यक्तं ते शङ्केयुगविद्यम श्रीभगवानुवाच मज्जाविश्वमनुजीमं नित्ययुक्तायुपासते श्रद्धया परयोपेता स्ते मे युक्ता तमामत ये त्वक्षरमनिर्देश्य मव्यक्तं पर्युपासते सर्वत्र गमचिन्त्यञ्च कूटस्थमचलं ध्रुवं संनियमेन्द्रियग्रामं सर्वत्र समबुद्धय ते प्राप्नुवन्ति मामेव सर्वभूतहितेरतः क्लेशोऽधिकतरस्तेषां मव्यक्त्यासक्तचेतसाम् अव्यक्ता हि गतिर्दुःखं देहपदभिरवाप्यते ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परा अनन्येनैव योगेन मां ध्यायन्त उपासते तेषामहं समुद्धरता मृत्यु संसार सागरात् भवामि न चिरात् पार्थ मज्ज्यावेशितचेतसं मज्जेव मनाधत्स मयि बुद्धिं निवेशय निवशस्यसि मज्जेव अत ऊर्ध्वं न संशयम् अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तं धनञ्जय अभ्यासे पश्समर्थोषि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि अथैतादप्यशक्तोषि कर्तुं मद्योगमाश्रित सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् श्रेयो हि ज्ञानमभ्यासाज ज्ञानध्यानं विशिष्यते ध्यानात् कर्मफलत्याग त्यागच्छन्ति निरन्तरम् उद्दिष्टा सर्वभूतानां मैत्रः करुणा एव च निर्ममो निरहङ्कारः समदुःखसुखक्षमी सन्तुष्टः सततं योगी यतात्मा दृढनिश्चया मज्जरपितमनोबुद्धि यो मदभक्तः समे प्रियः जस्मान्नोद्विजते लोको लोकान्नोद्विजते च या हर्षामर्ष भयोद्वेगैर्मुक्तो यः स च मे प्रियः अनपेक्षा शुचिर्दक्ष उदासीनो गतव्यथा सर्वारम्भ परित्यागी यो मदभक्तः स मे प्रियः यो न हृष्यति न दृष्टि न शोचति न कंसति शुभाशुभ परित्यागी भक्तिमाञ्ज स मे प्रियः समशत्रौ च मित्रे च तथा मानापमानयो शीतोष्णसुखदुःखेषु समसङ्गविवर्जित तुल्यनिन्दास्तुतिरिमौनी सन्तुष्टो येन केनचिद् अनिकेतस्थिरमतिर्भक्तिमान् मे प्रियो नर ये तु धर्मामृतमिदं यथोक्तं पर्युपासते श्रद्दधानामत्परमा भक्तास्ते इतीव मे प्रिया ॐ तत्सद् इति श्रीमहाभारते शतसाहस्रसंहितायां वैयासिक्यां विश्ववर्वणि श्रीमद्भगवद्गीतासूपनिषदसु ब्रह्म ब्रह्म विद्यायां योग शास्त्रे श्री कृष्णार्जुन संवादे भक्ति योगो नाम द्वादशो अध्यायः।